ఇంద్రో భరిద్భ్యస్తాం విద్యేన మాధ్యందినే సమనే వృత్రమహనయన్మాధ్యందినే సమనే పరిత్వదీయా గృహ్యం దేవాత్రఘ్నాయేవతే యజమానస్య గృహ్యం దే తస్య వృత్రం జగ్ఞుగర్తవోముహ్యం సరుదుపాత్రేణ మరుత్వదీయా న గృహ్ణాత్తదో వై సరుదోన్ ప్రాజానాద్యదుపాత్రేణ మరుత్వదీయా గృహ్యం ూనాం ప్రజ్ఞాై వజ్రం వాయమానభ్రాదుర్యాయ ప్రహరతి యన్మరుత్వదీయాపుదేవ ప్రథమేణ గచ్చతి ప్రహరతి ద్వితీయేణ స్తృమితే తృతీయేనాయుధం వాయేతజ్యజమానస్సగ్గస్కురుతే యన్మరుత్వదీయా ధనురేవ ప్రథమోజ్యా ద్వితీయయుధస్తృతీయ ప్రత్యేవ ప్రథమేణ ధత్తే విసృజతి ద్వితీయేన విధ్యతి తృతీయ ేంద్రవృత్రగౌహత్వాపరాపరాపదమగచ్చద పారాధమితి మన్యమానః స హరితో భవత్సేత మరుత్వదీజానాత్మస్మరణాన పశ్యత్తాన గృహ్ణేన ప్రాణమేవ ప్రథమేనా స్పృణుదా పానం ద్వితీయేనాత్మానం తృతీయేనాత్మస్మరణావాయేతే విజమానస్య గృహ్యంతే యన్మరుత్వదీయా ప్రాణమేవ ప్రథమేణ స్పృణుతే పాణం ద్వితీయేనాత్మానం తృతీయేనేంద్రవృత్రమహంతం దేవా అబ్రువన్ మహానువా అయమభోద్యో వృత్రమవధేతి తన్మహేంద్రస్య మహేంద్రత్వగుంహేతం మాహేంద్రముద్ధారముదహరత వృత్రగుంహత్వాన్యాసు దేవతాస్వధియన్ మాహేంద్ర గృహ్యత ఉద్ధారమేవ తంయజమానవుద్ధరతేన్యాసు ప్రజాస్వధి శుక్రపాత్రేణ గృహ్ణాది యజమానదేవత్యో వైమాహేంద్రేణ శుక్రోయన్మాహేంద్రగం శుక్రపాత్రేణ గృహ్ణాది యజమానగేవ తేజోదధారి అదజః పుత్రకామాధాభ్యేభ్యో దేవేభ్యో బ్రహ్మౌదనమవదత్తస్యావుచ్ఛేదనమదరుస్తం ప్రాష్టాత్సారేతో దత్త తస్యై చత్వారహాదిత్యా అజాయంతసా ద్వితీయమవదత్సామన్యతోచ్ఛేదనాన్మయిమేగ్రే ప్రాశిష్యామేతో మే వసీజాగుంసో జనిష్యంతగితి సాగ్రే ప్రాష్టా సారేతో దత్తస్యేభ్యర్థమాండమజాగత సాదిత్యేభ్యదేవ తృతీయమవజద్భోగాయమయుజగ్రశ్రాంతమస్తిభితే బ్రవన్వరం వృణామహయ్యోతో జాయాతాస్మాకంసేకో సంధ్యోస్య ప్రజాయా వృద్ధ్యాత అస్మాకం భోగాయ భవాదిశితో విభస్మానాదిత్యో జాయత తస్య వార్యం ప్రజాయన్ మనుష్యా స్వేకగేవర్ధ్వయో యజతే సదేవానాం భోగాయ భవతి దేవామీ యజ్ఞాద్రుద్రమంతరాయం సాదిత్యానన్వాక్రమతటే ద్విదేవత్యాన్ ప్రావధ్యం దతాన్న ప్రతి ప్రాయచ్చంతః పాదవిబధ్యం ప్రపన్నన్న ప్రతి ప్రయచ్చంతి తస్మాద్విదేవత్యేభ్యాదిత్యో నిర్గృహ్యతే యదుచ్చేషణాదజాయంత తస్మాదుచ్చేషణాద్విహ్యతేర్గృహ్ణాతి మాతా పితా పుత్రస్థ దేవతం మిథునముగ్గం గర్భోజరాయుత దేవతం మిథునం పశవో వారేతే యదాదిత్యవోర్ధి దద్దామధ్యతశ్రీణాత్యోర్ధమేవ పశూనాం మధ్యతో దధా దిశతాతంకేన మేభ్యత్వాయ తస్మాదామా పక్వం దుహే పశవో వారేతే యదాదిత్యః పరిశ్రత్య గృహ్ణాది ప్రజరుద్ధ్యైవాస్మై పశూన్ గృహ్ణాది పశవో వారేతే యదాదిత్యగేత రుద్రో విదగ్ఞః పరిశ్రత్య గృహ్ణాది రుద్రాదేవ పశూనంతర్దధాత్యేణవై వివస్వానాదిత్యో యజుపాగం సువనస్తేతమేవ సోమపీఠం పరిచయ ఆతృతీయవనాద్వివస్వాదిత్యేషతే సోమపీఠ ఇత్యాహ వివస్పందమేవాదిత్యగం సోమపీఠేన సమర్థయతి యా దివ్యాశ్రేణామేతి వృష్టికామస్య శ్రేణీయా దృష్టిమేవారుంధే యతి తాజక్ ప్రస్కందే ర్షుక పర్జన్యస్యాది चिरमवर्षुको न साधगत्य सन्नाद्य प्रजा प्रजायन्ते नानुवषत्करादिगदनुवषत्कुर्याद्रुद्रम् प्रजा अन्ववसजेन्न हुत्वान्वीक्षेदयदन् वीक्षेदचक्षुरस्य प्रमायुगस्य स्यात्तस्मान्नान्वीक्षः अन्तर्यामपात्रेण सामित्रमाग्रहणाद्गृह्णादि प्रजापतिर्वाणेन यदाग्रहेण प्रजानाम् प्रजननाय न साधयत्यसन्नाद्य प्रजा प्रजायन्तेनानुमषत्वरोधिगतनुमषत्कुर्या रुद्रम् प्रजा अन्वसृजे देशवेगायत्रो देवानाम् यत्सवितेजगायत्रये लोके विद्यते यदाग्रहणो यदन्तर्यामपात्रेण सा मित्रमाग्रहणाद्गृह्णादि स्वा देवैनय्यो नैर्निर्गृह्णादि विश्वे देवास्तृतीयगुम् सवनन्नोदयच्छन्ते स पितारम् प्रातःसवनभाजगुम् सन्तम् तृतीयसवनमभिपर्यनयन्ततो वेदे तृतीयगुम् सवनमुदयच्छन यत् तृतीयसवने सावित्रो गृह्यते तृतीयस्य सवनस्योद्यत्वेध पितृपात्रेण वैश्वदेवम् कलशाग्रह्णादि वैश्वदेव्यो प्रजा वैश्वदेवः कलशः सविता प्रसवानामीशेत्सवितृपात्रेण वैश्वदेवम् कलशाद्गृह्णादिपितृप्रसूतगेवास्मै प्रजा प्रजनेतिशोभेदोमभिगृह्णादिदेशगेव तत्प्रधातिसुशर्मा जनुप्रतिष्ठान इत्याहतो मे सोमभिगृह्णादि प्रतिष्ठित्यामेतस्मिन्वाभिग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यः क्रियते सुशर्माजनुप्रतिष्ठाननित्याह मनुष्येभ्यदेवैतेन करोति बृहदित्याह देवेभ्यदेवैतेन करोति नम इत्याह पितुर्भ्य एवैतेन करोत्येतावतेर्वै देवतास्ताभ्यदेवै नकुम् सर्वाभ्यो गृह्णात्येष तेजो नर्विश्वेभ्यस्त्वा देवेभ्यदित्याह वैश्वदेवाख्येनः प्राणो वा एष यदु पाकुंसुर्यदु पाकुंसुपात्रेण प्रथमस्तो तमश्चग्रहो गृह्येते प्राणमेवानुप्रयन्ति प्राणमनोद्यन्ति प्रजापतिर्वाणेन प्राणवपाकुंसुपत्नी प्रजा प्रजनयन्ति यदु पाकुंसुपात्रेण पात्री वदमाग्रहणाद्गृह्णाति प्रजानाम् प्रजननाय यस्मात् प्राणम् प्रजान प्रजायन्ते देवा वा इतैतः पत्नी सुवर्गम् लोकमजिगागुम् सन्ते सुवर्गम् लोकम् न प्राजानन्तरेतम् पात्रेवतमपश्यन्तमगृह्णदो वेदे सुवर्गम् लोकम् प्राजानयुक्तात्रेवतो गच्छते सुवर्गस्य लोकस्य प्रज्ञा देशतो भोरातिष्ठतस्तेभ्यो गृह्यमाणस्तम् घृतम् वज्रम् कृत्वा घ्रन्तम् निरिन्द्रियम् भूतमगृह्णन्तस्मा ीरपिपुंसमुपस्थितलम् वदन्ति यद्धृतेन पात्रीपदग्रश्रेणादिवज्रैवेनम् वशे कृत्वा गृह्णात्युपयामगृहीतोऽसीत्याहेयम् वा उपयामस्तस्माधिमा प्रजा न प्रजायन्ते बृहस्पतिसुरस्य दैत्याः ब्रह्मवै देवानाम् बृहस्पतिर्ब्रह्मणैवास्मै प्रजा प्रजनयजेन्दो इत्याह वेदो वा इन्दोरेतदेव तद्दधातेन्द्रियावयुत्याः प्रजा वा इन्द्रियम् प्रजा एवास्मै प्रजनयत्यग्ना ैरतोः पत्नी वयत्याह मिथलत्वाय सजोद्देवत्वष्ट्रामम् विवेत्याहत्वष्ट्रा वै पशूनाम् यसुनागुम् रूपकर्द्रूपमेव पशुषदधारेवाष्टारमजिघागुम् सन् सपत्ने प्रापद्यतन्न प्रतिप्रायच्छन्तस्मादविमध्यम् प्रपन्नम् न प्रतिप्रयच्छन्ति तस्मात् पात्री पदे त्वष्ट्रेऽपि लिख्यते न यत्यसन्नाद्य प्रजा प्रजायन्ते नानुवषट्करोति यदनुवषट्कुर्याद्रुद्रम् प्रजा अन्वपजनेद्यन्नानुवषट्कुर्यादशान्तमग्ने सोमम् भक्षयेतु पाकश्वनुवषट्करो जनरुद्रम् प्रजा अन्वपसृजति शान्तमग्ने सोमम् भक्षयत्यग्नेष्टरुपस्तमासीदनेष्टः पत्नीमुदानयत्याहाग्ने देवनेष्टरिलेतो तथा जनेष्टावत् क्रियामुद्गात्रा सङ्ख्यापयति प्रजापजल्वायेदुद्गाता प्रजानाम् प्रजलनायापौ प्रवर्तयतिनेतदेव तत्सिञ्चत्योरुणो प्रवर्तयत्योरुणाहिरेतस्सिच्यते नग्नङ्गत्योरमुभप्रवर्तयति यदा हि नग्नपूर्वभवत्य सवि सुने भवतो धनेतस्सिच्यतेऽथ प्रजाः प्रजायन्ते इन्द्रभर्त्रमहन्तस्य शीर्षकपालमुदौ यत्सद्रोणगरसो भवत्यस्मात् स्वभः समस्रवत्सहारियो जनो भवत्तम् व्यजिगच्छद्युभामि मण्यधयद्भोष्याम् व्यामगंहोष्यामि यन्नहोष्यामि यज्ञवेशसम् करिष्यामि ऋतमध्येतभोतकंसोऽग्निरप्रभेङ्गमयामगुहोष्यभिरस्नेहात्मकम् श्रुतम् भूतमजुभाज्यधानाभिरहारियो जनग्रश्रेणादिशतत्वाविशतमेवैनम् भूतम् जुहोजिभक्तेऽभिश्रेणात्येतावतीरेवास्त्रामुष्मिन् लोके कामदुःखा भवन्त्य खल्वाहुरेता वा इन्द्रस्य मृष्टयक्कामधुखाभ्यारियो जनेरिति तस्माद्भक्वेभिश्रेणीयादृक्सामे वा इन्द्रस्य हरेकामपाणोतयो परिधय आधानयदप्रकृत्य परिधेन्दुभयादन्तराधानाभ्याम् घातम् प्रयच्छेत् प्रकृत्य परिधेन्दुः जनिराधानाभ्यामेव घातम् प्रयच्छत्वम् मेताजहोदयातयामेव ह्येतर्यध्वर्यस्वगाकृतो ध्वर्यद्युभुयाथा विमुक्तम् पुनर्युनक्ति तादृगेव तच्छेषन्यसिधाय जुहोदिशेर्षतामिभवद्विक्रम्य जुहोदिविक्रम्यहेन्द्रमहन् समृद्धे पशवो वेहारियो जनेभिन्द्यादुत्पादेनम् पशवो भुञ्जन्तौपतिष्ठेरणयन्नतम् भिन्द्याद्भवयेनम् पशवो भुञ्जन्तौपतिष्ठेरन्मनसाकम् वासदभयम् करोति भवदेवैनम् पशवो भुञ्जन्तौपतिष्ठन्तम् ेतर्युपहविच्छन्ते यदेव तत्र सोपपेशस्तमेवावरुन्धतमुत्तरवेद्यान्निवपति पशवो वा उत्तरवेदि पशवो हारियो जने पशुस्वेव पशून् प्रतिष्ठापयन्ति ्रजा पशवः प्रजायन्तमुपागस्वन्तर्यामापजावय शुक्रामन्थिनौ पुरुषानुदग्रहानेकसभायित्यग्रहङ्गावायित्यग्रहो भोजिष्ठाभिरग्भ्यते तस्माद्गावः पशूनाम् भोजिष्ठाय त्रिगुपागुंसुगोहस्तेन विगृह्णाति तस्माद्भोत्रेण जाजनयद्यथा वजो भोजसे पिता वा येषु यदाग्रेण पुत्रः कलशो यदाग्रे उपदस्येः कलशाः गृह्णीयाच्च सा पिता पुत्रम् क्षितमुपधावति तादृगेव तद्यत्कलश उपदस्येनाग्रेणान् गृह्णीयाच्च सा पुत्रः पितरम् क्षितमुपधावति तादृगेव तदात्मा वा येषु यज्ञस्य कृताग्रहणो यग्रहो वा कलशो वा पदस्येदाग्रहणान् गृह्णीयादात्मन एवाधियज्ञम् निष्कृतो वा एतदृक्यते यदाग्रहणस्थ ्याग्रन्थादिवायोग्येन जुहोदिस्माद्गर्भेणाभिज्ञातेन ब्रह्मावप्रथमपयन्ति पुराः स्थानेरस्तञ्चद्वायव्यानि हरन्ति तस्मास्तिगम् जाताम् पराः सञ्चत्वमागंसगोहरन्ति यत्वरानुजमाहयथावस्यत आहरति तादृगेव तद्यग्रहम् गृह्णाति यथावस्यत आहृत्य प्राह तादृगेव यत्सादयति यथावस्यदमुपनिधाय वक्रामति तादृगेव तद्यद्वै यज्ञस्य नायुजुषायते शिथिलम् तद्य दृजादृढम् पुरस्तादुपया वा यजुषा यज्ञन्त उपरिष्टादुपया वायजा यज्ञस्य धृत्यैः ्याणि पात्राणि युज्यन्ते नान्यानि यानि पराजेनानि प्रयुज्यन्ते ममेवदे लोकमभिजयति पराय भक्तसौ लोको यानि पुनः प्रयुज्यन्त इममेवदे लोकमभिजयति पुनः पुनर्भक्तिगम् लोकः प्राण्यानि पात्राणि युज्यन्ते नान्यानि यानि पराजेनानि प्रयुज्यन्ते तान्यन्वोढुदयः परा भवन्ति यानि पुनः प्रयुज्यन्ते तान्यन्वोढुदयः पुनरा भवन्ति प्राण्यानि पात्राणि युज्यन्ते नान्यानि यानि पराजीनानि प्रयुज्यन्ते धान्यन्वारण्याः पशवोरण्यमुपयन्ति यानि पुनः प्रयुज्यन्ते धान्यनुग्राम्याः पशवो ग्रामुपावयन्ति यो वै ग्रहाणाम् निदानम् वेद निदानवान् भवत्याज्यमित्युक्तम् तद्वै ग्रहाणाम् निदानम् यदु भागुंसुरगुंसदु भागस्वन्तर्गामयोर्यदुच्छैस्तरिदलेषाम् ग्रहाणामेतद्वै ग्रहाणाम् निदानम् एवम् वेद निदानवान् भवति यो वै ग्रहाणाम् मिथुनम् वेद प्रजयामसुभिर्मिथुनैर्जायते स्थालेभिरन्ये ग्रहानिष्यन्ते वायव्यैरन्यमेतद्वै ग्रहाणाम् मिथुनम् यदेवम् वेद प्रजयामसुभिर्मिथुनैर्जायतगिन्दस्तष्ट स्वाममवेदः विवत्स विष्पन्याक्षत्स आत्मन्नारवणम् नाविन्दत्स एतादनुसमनम् रोणाजानवश्यत्तान्यदपत्यैर्वै स आत्मन्नारवणमकुरुचतस्मादनुसमनम् पुरोडाशानिलप्यन्ते तस्मादनुसमनम् पुरोडाशानाम् प्राश्नीजातात्मन्नेवारमणम् कुरु तेनैन किम् सोमोति भवते ब्रह्मवादिना वदन्त्यनच्चालेजुषा पङ्किराप्यते धगै यज्ञस्य वान् दत्तमिति धानाकरम्भः परिपापः पुरोडाशपयस्यातेन पङ्किराः कृते तद्यज्ञस्य वान् तत्त्वम् ॐ स्वर्गाय वा एतानि लोकाय भूयन्ते यद्दाक्षिणानि द्वाभ्याम् कालिकवत्येजुहो यद्दिपाद्यजमानः प्रतिष्ठित्राग्नेन्तरिक्षयेवाक्रमते सदोभ्येजुवर्गमेवैनम् लोकम् गमयति सौरेभ्या विभ्याम् कालिकवत्येजुहोत्तममेवैनम् लोककुम् समारोहयति नयवत्यर्चाग्नेभ्येजुहोरिसुवर्गस्य लोकस्याभिने ङ्गच्छतुमः पदे हिरण्यकम् भक्तो गृह्णादितु वर्गमेवैनम् लोकम् गमयति रूपेण वा रूपमभ्यैमेत्याह रूपेण चागोरूपमभ्येति यद्धिरण्येन तथो वा विश्ववेदा विभजत्याह तथोहस्तवै विश्ववेदा देवानाञ्जक्षिणा विभजति तेनैवैना विभजत्ते अग्नेनाधैति सोमच्युतमित्याह सोमच्युतगृह्यस्य राधैतम् मित्रस्य पथालयेत्याह शान्त्या तस्य पथा प्रेतचन्द्रदक्षिणा इत्याह सत्यम् वा ऋतकम् सत्येनैवेनाहृतेन विभजति यज्ञस्य पथायन्तेरित्याह यज्ञस्येताः पथायन्ति यद्दक्षिणा ब्राह्मणमद्यराध्यातपृथिवारिषेयमित्याह एषवे ब्राह्मणविनारिषेयो यश्वश्रुवान् तस्मादेव माहविशुभः पश्यव्यन्तरिक्षमित्याह सुवर्गमेवेनम् लोकम् गमयतिरस्मदस्येरित्याहमित त्रागच्छत मधुमदे प्रदातारमाविशुदेत्याहमयमिह प्रदातारस्वात्मानमुत्रमधुमतेनाविशुदे हिरण्यम् ज्योतिरेव पुरस्ताद्धत्ते तु वर्गस्य लोकस्यानुख्यात्याग्नीधे ददात्यग्निमुखानेव त्वन्प्रेणादि ब्रह्मणे ददाति प्रसो येहोत्रे ददात्यात्मा वा यज्ञस्य लग्भवतात्मानमेव यज्ञस्य दक्षिणाभिः समर्थयति समिष्टयजोगुंषजुहोति यज्ञस्य समिष्टे यद्वै यज्ञस्य क्रोरं यद्विष्टं यदत्येदियन्नात्येति यदति करोति यन्नापि करोति सदेवते प्रेणाति नवजुहोति नव वै पुरुषे प्राणाः पुरुषेण यज्ञः संमितो यावानेव यज्ञस्त्वम् प्रेणाति षट्वयानि जुहोति षट्वारतवऋतूणेव प्रेणाति त्रेणि यजोगुंषित्रेणि मे लोका इमानेव लोकान् प्रेणाति यज्ञयज्ञम् गच्छ यज्ञपदिम् गच्छे त्याह यज्ञपतिमेवैनम् गमयति स्वायोलिङ्गच्छेत्याह स्वामेवैनम् योलिङ्गमयत्येषे यज्ञो यज्ञपदेनवीरैत्याह यजमानमेव वीर्यम् दधाति वा सुष्ठोहसात्यहव्यो देव भागम् प्रच्छगत्सञ्जनान् बहुयागिनो यजो यज्ञे यज्ञम् प्रत्यतिष्ठि वा यज्ञपदा ज्ञपदाविधसत्याद्वैरुद्रजास्पराभूवरिहोवाचयज्ञेवावयज्ञप्रतिष्ठाप्यासीद्यमानस्यापराभावाचयदेवागादिमितो गातुम् वित्त्वा गातुमिजेत्याह यज्ञ एव यज्ञम् प्रतिष्ठापयति यजमानस्यापराभावाय अवपृथयजोगुंषिजोदिगदेवार्वाजेनमेकहायनादेनः करोचिरदेवतैरवयजते गोपप्रथमवेत्यप्सुवे वरुणस्ताक्षादेव वरुणमवयजदेवत्मनावान्नित्ययज्ञगौ रक्षागुं दधिघागुं सन्ति साम्ना प्रस्तोतान् भवेति सामवे रक्षोः रक्षतामुपहत्येत्यन्निधनमुपैत्रैमे लोकायेभ्यदेव लोकेभ्यो रक्षाकस्य वहन्ति पुरुषः पुरुषो निधनमुपैति पुरुषः पुरुणोगिरक्षस्मै रक्षतामुपहत्या पुरुगुंभिराजा वरुणश्चकारेत्याह प्रतिष्ठित्यै राजन् भिणजसहस्रमित्याह भेणजमेवास्मै करात्यभिष्ठितो वरुणस्य पाशयित्याह वरुणपाशुमेवाभिष्ठति बर्हिरभिजुहोक्त्याहुदीनाम् प्रतिष्ठित्या अथो अग्निवत्येव जुहोत्यमपरिषः प्रजाजानिगति प्रजा मे बर्हिः प्रजा एव वरुणपाशान्मुञ्जत्याज्य भागो यजति यज्ञस्यैव चक्षुषे ेनान्तरे वरुणङ्गिरिवरुणपाशादेवैनम् मुञ्चत्यग्ने वरुणौलिगिरि साक्षादेवैनम् वरुणपाशान्मुञ्चत्यभुवरिगिरावनो याजोलिगिरि प्रजा मे बलिः प्रजा एव वरुणपाशान्मुञ्चरि सुगुणप्रजालिगिरि द्वावनो याजोषः सम्पद्यन्ते षड्वारितमरुदस्येव प्रतिष्ठत्यवसृजम् गुणेत्यायसोदितमेव वरुणमवयजते समुद्रे देहृदयमुत्सुन्दरित्याहुमुद्रेक्ष्यन्तरवरुणस्सन्त्वा ैरुदापयित्याहाभ्यदेवै नमोषधेभिः सम्यञ्जन्तसा देवीरापदेशभोगभ्यनित्याह यथा यजुरेवै तत्पशवो वै सोमो यद्बिन्दूनाम् भक्षयेत् पशुमान् स्याद्वरुणस्तेनम् गृह्णेयाद्यन्न भक्षयेत् पशुस्यान्नैनम् वरुणा गृह्णेयादु भक्तृश्चमेव पशुमान् भवजनेयम् वरुणा गृह्णाति प्रदयतो वरुणस्य पादगित्याह वरुणपाशादेव निर्मुच्छते प्रदेक्षमा वरुणस्यान्तरिहित्यायेधोत्येजतिमहेत्याहतुमिदेवाग्निन्नमस्यन्तमुपायन्ति तेजोजतेजोमधेहेत्याह तेजदेवात्मन्धत्ते क्षेणवेदिमध्यञ्जलसाक्षेण विमे तेजोपम् विनो चित्रमुदमेव वज्रगुम् सम्भृत्यभ्यानुयानप्रहरस्त्रेदन्तर्वेदिमिजाद्देव लोकमभिजयेद्यद्भिर्वेदमनुष्यलोकम् वेद्यन्तस्तन्धो विनोत्युभयाम् लोकयाभिजित्या उपरतम् विधाम् विनयापितलोककामस्य धनसंविदाम् मनुष्यलोककामस्य विधानसंविदामिन्द्रियकामस्य सर्वान् समान् प्रतिष्ठाकामस्य मध्यमास्तान् समान् पशुकामस्यैतान् वा अनुपशव उपतिष्ठन्ते पशुमानेवैनम् पशुभिर्व्यजिधयम् कामकेन प्रमाणकस्यादि कर्तमिदन्त्यस्य विनजागुत्तरार्भ्यम् वरिकृष्टवसकृतीरागुम् समेधामे कर्तमित्यस्यैवम् विनोति ताजः प्रवीयते दक्षिणार्ध्यम् वरिकृष्ठम् विनजात्सुवर्गकामस्यासकृतीरागुम् समाक्रमणमेव यजमान वर्गस्य लोकस्य नमष्टैकस्मिन् योपेद्वेरसने परिवेदितस्मादेको विन्दते यन्नैकागुंसनान्तयोर्योपयो परिवेदितस्मान्नैकाद्रौपदी विन्दते यङ्कामजेतस्य जायतेत्युपान्ते तस्य व्यतिरेस्तेवास्य जायते यङ्कामगेन उमानस्य जायतेत्यान्तम् तस्य प्रवेष्टये उमानेवास्य जायते सुरावेदे दक्षिणतमुपानयन्ताम् देवा उपशदे नैवापानुदन्तोपशयस्योपशयत्मै यद्दक्षिणतमुपशदमुपशदेभ्यादुर्यापनत्ये सर्वे वा अन्ये योपाः पशुपन्तोऽथोपशदेवा पशुस्तस्य यजमानः पशुर्यन्न निर्दिशेदात्युमार्थमानोऽसौ पशुरिति निर्दिशेत्यम् दृश्याद्यमेव द्वेष्टिनमस्मै पशुन् निर्दिशति निर्दिश्याग्राम् ्यान् पशोरभिनस्तिरारञ्जान् प्रजापरि प्रजादशदशोन्नाद्येनव्यादशदशेतामेकादशनेमपश्चत्तया वे सोऽन्नाद्यमवारुन्धयद्दशयोपा भवन्ति तथा कला विराडन्नम् विराट् विराजैवान्नाद्यमवरुन्धे एकादशस्तर एवास्यैषदुभगेवैनान्तेन वज्रो वा एषा संमीयते यदेकादश देशेश्वरा पुरस्ताः प्रत्यञ्जै यज्ञकम् संवर्धितो यज्ञः केवलम् विनोदि यज्ञस्य प्रत्युक्तध्येत गत्वा ప్రజాపతి ప్రజాశ్వరితానో మన్యతేతాదశిని పశ్యత్తయాయరింద్రియం వీర్యమాత్మన్న సత్త ప్రజాయుమఖను వాజతేకాదశిని భవత్యాయుదేవతేంద్రియం వీర్యం యజమాన ఆత్మన్ సత్తే ప్రేమాగ్నేయేణ పాపేతి ఘనగుంసారస్పత్యాకరోత సౌమ్యేన తథాది ప్రజనేది పౌష్ణేన వాజస్పత్యో భవతి బ్రహ్మ వై దేవానాం బృహస్పతి బ్రహ్మణైవాస్మై ప్రజా ప్రజనేది వైశ్వదేవో భవతి వైశ్వదేవ్యో వై ప్రజా ప్రజా దేవాస్మై ప్రజనయతీంద్రియమేవేంద్రేణావరుంధే విషం మారుదేణోజో బలమేంద్రాగ్నేన ప్రథమాయ సావిత్రోజర్వరుణత్వాయ వారుణో మధ్యత ఐంద్రమానభదే మధ్యత ఏవే దేయ్యజమానే తథాది పురస్తాదేంద్రస్య వైశ్వదేవమానభదే వైశ్వదేవం వాన్నమన్నమే పురస్తాధస్తే తస్మా పురస్తాదన్నమద్యత ఐంద్రమాలభ్యమానభదే విడ్డే మరుతామిషమేవాస్మానుబద్ధాది కామగేత యోవగత స్వోపరుధ్యతాయోపరుద్ధ స్వోపగచ్చత్విత్తేంద్రస్య లోకే వారుణమానభేద వారుణస్య లోక ఐంద్రయ్యదేవావగత స్వోపరుధ్యతే నోపరుద్ధ స్వోపగచ్చతి యది కామగేద ప్రజాముఖ్యే యురుది పశోన్విజరే ప్రజాయే మమోహయతి యదవివాహతోపాం వారుణమానభేద ప్రజావరుణోయ్యా దక్షిణత ఉదంచ మానభదే వివాహతోపాం ప్రజానామవరుణగ్రాహాయ ఇంద్రపత్నిగామనుమయాజగత్తాంపర్యజ్ఞతామునుసృజత్తగామనురాధ్వాజత్పర్యజ్ఞతం పాత్రీమతముత్సృజతియామేవ మనురుద్ధివాధ్వామేవ ఇదమానరుద్ధ్నోతి యజ్ఞస్య వా అప్రతిష్ఠితా యజ్ఞ పరాభవతి యజ్ఞం పరాభవంత యజమానో న పరాభవతి యరాజ్యేన పాత్రీమతగుంధగ్ఞస్థాపయతి యజ్ఞస్య ప్రతిష్ఠత్తి యజ్ఞం ప్రతిష్ఠంత యజమానో న ప్రతిష్టతేష్టం అపజాభవత్ రూపాణి వికరోతి ఘ్నంది వాతత్సోమయ్యగభిషుణ్వంది యత్సౌమ్యోభవతి సామృతాయానుత్తరణీ ఘ్నంది తాదృగేవ తద్యదుత్తరాధేవామద్దేవాజుహుయాద్దేవతాభ్యస్సమదం దద్యాద్దక్షిణాద్వేజుహోక్తేషామేమ తృణాంతి స్వాయామేవ దిశి మిత్రే నిరవదేదముద్గాతృభ్యో హరంతి కామదేవ్యో వై సౌమ్యోరిదేవతాం నక్షం వట్కుర్వంతి తదస్యైవ సదాంతిరవేక్షందే పవిత్రం వై సౌమ్యా ఆత్మానమేవేదాత్మానన్న పరిపశ్యేదాస్మానం పరిపశ్యత్యసో ఆత్మానమేవేజో గతమనా స్యాత్ సోవే క్షేదయన్మే మన పరాగతం యద్వా మే అపరాగతం రాజ్ఞా సోమేన తద్వయమస్మాజు ధారయామసీతి మననేవాత్మందాధారణగతమనాభవత్యపవేతి నీయతమనే యజ్ఞక్రామతి యోనాభ్యాగ్రామేష్ణం యచ్చాగతస్య యజత్యజ్ఞః సర్వా దేవతామిష్టయజ్ఞో దేవతాశ్చైవ యజ్ఞం చ దాధారో పాగుంశయజతి మిథునత్వాయ బ్రహ్మవాదినో వదంతి మిత్రో యజ్ఞస్య స్పృష్టం యువతే వరుణో దురిష్టం వదతి యజ్ఞక్వ యజమానో భవతి యన్మ వరుణే వచామానభదే మిత్రేణైవ యజ్ఞస్య స్విష్టకూశమయతి వరుణే దృష్టన్నార్చిమార్చమానో రథా వేదాంగనే నోర్వరాహం ప్రభిందం దేవ వృక్సావే యజ్ఞం ప్రభిందో యన్మే ప్రావరుణే వచామానభదే యజ్ఞానేవ ప్రభిన్నాయ భక్త్యమన్వవాసరిశాంతి జాతజామాని వా ఏతస్య ఛందాగుం దియయీ జానశ్చందసాయన్మే ప్రావరుణే వశామానభదే ఛందాగస్యేవ పునరాప్రీణాత్యజాతజామత్వాజాసో ఛందస్వేవ రథం దధాతి దేవాయింద్రియం వీర్యా అవ్యభజంత తో యత్తశిష్యతదిగ్రాహ్యాభవంతరదిగ్రాహ్యా నామదిగ్రాహ్యత్వం యత దిగ్రాహ్యా దృశ్యంతరింద్రియమేవ తద్వీర్యం యజమానాత్మ बन्धत्ते तेजहाग्नेयेनेहम् निगमेन्द्रेण ब्रह्मवर्तसगौ सहोर्येणोपस्तम्भनम् वाज्ञस्य यदग्राह्याश्चक्रे पृष्ठानि यत्पृष्ठेन गृह्णेन प्राञ्चम् यज्ञम् पृष्ठानसगौ श्रुणे गर्गलक्षे गृह्णेन प्रत्यञ्चम् यज्ञमधिग्राह्यासगौषणे गर्वविश्वति सर्वपृष्ठे हेतव्या यज्ञस्य कवेर्यत्वाय प्रजापतिर्देवेभ्यो यज्ञानि सत्स प्रजास्तनोरपन्यसत्तदग्राह्या अभवन्विदनुस्तस्य यज्ञैत्याहुर्यस्यादिग्राह्यानकृत्यन्तैत्यप्यज्ञष्टोभेतव्या यज्ञस्य देवता वै सर्वा सदृशीरादन्तानव्यापृतमगच्छन्ते देवादेतगेतान् ग्रहान् पश्यन्तान गृह्णताग्नेजमैन्द्रविन्दम् सौर्यगम् सौर्यस्ततो वैतेऽन्याभिर्देवताभिर्व्यापृतमगच्छति यस्तेवम् विदुरेते ग्रहागच्छन्ते व्यापृतमेव पात्मना भ्रातुर्येण गच्छति मे लोका ज्योतिष्मन्तः समावह्वीर्या कार्या इत्याहुराग्नेजेनास्मिल्लोके ज्योतिर्धत्त ऐन्द्रेणान्तरिक्ष इन्द्रपादौ हि सयुजौ सौर्येणामस्मिल्लोके ज्योतिर्धत्ते ज्योतिष्मन्तोऽस्मानि मे लोका भवन्ति समावद्वीर्यानेनान् कुरुत एतानु वै ग्रहान् बम्बा विश्वयथा पवित्ता ताभ्यामिमे लोकाः पराहन्तश्चार्वाञ्चश्च प्राभुर्यस्यैवम् विदुरेते ग्रहाश्यन्ते प्रास्मानि मे लोकाः पराहन्तश्चार्वाञ्चश्च भान्ति देवा वे यज्ञे कुर्वतसुरा कुर्वतते देवादाः भेषन्दागुण्डिसुवनाडुकमुस्थापयन्तो देवा भवन् परासुरायस्येवम् विदुरोदाभ्यो दृश्यते भवत्यात्मना परास्य भ्रातुर्या भवति यज्ञै देवासुरानदाभ्यस्यादाभ्यत्वय्यदेवम् वेदलभ्रात्येव भ्रातुर्यन्नैनम् भ्रातुर्यो लभ्रात्येषा वे प्रजापते मोक्षणेनावतनोऽभ्युपलब्धस्य गृह्णात्यपि मुक्त्या अधिपात्मानम् भ्रातृव्यम् मुच्यते एवम् वेदघ्नन्ति वा एतत् सोमङ्गलविशृण्वन्ति सोमे हन्यमानेष्णो हन्यते यज्ञे यजमानो ब्रह्मवादिनो वदन्ति किम् तद्यज्ञे यजमानः कुरुते येन जीवन् स्वर्गम् लोकमेतीति जीवग्रहो वा एष यदाभ्योरभिषदस्य गृह्णाति जीवन्तमेवेन कुम् स्वर्गम् लोकम् गम यज्ञम् चिन्तन्ति यदाभ्येदग्निस्थापयन्तकुंशोऽपि यज्ञस्य सन्तत्यै देवा वे प्रवाहुग्रहान् गृह्णतदेतम् प्रजापतिरघुंशुमपश्यत्तमगृह्णेतदेनवेदास्यैवम् विजुषोऽहुंशुर्भिक्यलरध्नात्येव सकृतभिषदस्य गृह्णासकृद्धिसतेनार्थान्मनसा गृह्णातिमनैव हि प्रजापतिप्रजापतेनाप्त्या औदुम्बरेण गृह्णायोर्वावुदुम्बरवोर्जमेवावरुन्धे दुःस्रक्ति भवति चिक्षेव प्रतितिष्ठति यो वा घुंशोरायतनम् वेदायतनवान् भवति वामदेव्यमिति मनसागायमानो गृह्णात्यायतनवानेव भवति यदध्वर्यरघुंशम् गृह्णन्नाद्धयेतुभाभ्यामेतैतद्धनेतुभाभ्यामृद्धेतानवानम् गृह्णाति सैवासृद्धिरण्यमभिर्विलत्तमृतम्बेहिरण्यमायप्राणायुषैवामृतमभिरोधिशलमानम् भवति श्रुतायुषेन्द्रियायुषेन्द्रिये प्रजापतिर्देवेभ्यो यज्ञान्व्यादिसत्सरिचानो वन्यधरिज्ञानागुम् षोडशयम् वीर्यमात्मानमभिरमख्यदत्तक्षोडश्य भवन्नवे षोडशीनामयज्ञोष्टोत्रगुम् षोडशगुम् शस्त्रम् तेन षोडशी षोडशिनः षोडशित्वम् यक्षोडशीरिष्यत इन्द्रियमेव तद्वीर्यम् यजमान आत्मम् धत्ते देवेभ्यो वै सुवर्गो लोको न प्राभ भवत्तनेतकम् षोडशिनमपश्यन्तम गृह्णतो वीतेभ्यः स्वर्गो लोकप्राभवत्यक्षोडशे गृह्यते स्वर्गस्य लोकस्याभिजित्या इन्द्रो मे देवानावानुदावरहासे स प्रजापतिमुपाधावत्तस्मानेतकम् षोडशिनम् प्रायच्छत्तम गृह्णेतनतो वे सोऽग्रम् देवतानाम् पर्येद्यस्यैवम् विदुनः षोडशे गृह्यते अग्रमेव समानानाम् पर्येदिनो राजस्य पदे गृह्णाति वज्र यावेशोऽजीवग्रप्रातस्तपनग्निस्वा देवेनय्यो निर्गृह्णाति तवने तवने विगृह्णाति तवन सवना देवेनम् प्रजनयदधीयते मे पशुकामस्य गृह्णीरात्तग्रोवेशोऽजीवशमस्तृतीयतमनम् मद्रेणैवास्मै तृतीयतमनात् पशूनवृन्धेनोच्छे पशवमुक्त्वादिकदुक्ते गृह्णीरात् प्रजाम् पशूनस्य निर्दहेदिरात्रे पशुकामस्य ग्रन्थीरात्मद्रोवेशोऽस्मै पशूनवरुध्यरात्रिजोपरिष्टाक्षमयत्यप्यग्निष्टो वेदाजन्यस्य गृह्णीरा यावृत्ता बोहिराजन्यो यजते सान्धरेवास्मै वज्रम् गृह्णाति तदेकम् वज्रभूत्यारिन्धे निर्वादहत्ते कविकम् शग्गस्तोत्रम् भवति प्रतिष्ठित्ये हरिवक्षस्य त इन्द्रस्य प्रियन्धामोपाप्नोति कलीरागुम् शिवै देवेषुषन्तागस्यासञ्जाजागस्य सुरेषु ते देवा कलीयताछन्दसाज्याश्छन्दाभिव्यजगम् सन्ततो वेदे सुराण लोकमवृञ्जत यत्कलीयताच्छन्दसाज्याश्छन्दाभिव्यजगम् तदिर्भ्रातुर्व्यस्तैतल्लोकम् वृङ्केशनक्षराण्यतिरेदयन्ति षट्वारि तव ऋतूनेव प्रीणादि चत्वारि पूर्वाण्यपयन्ति दुर्पदरेव पशूनवरुन्धे देवोत्तरे द्विपदरेवावरुन्धे नष्टभोभिदम् पालयन्ति वाग्वा नष्टोत्तस्मात् प्राणानाम् वागुत्तमासमजाविषिते सोऽ षोडशि नः स्तोत्रमुपाकरो चेतस्मिन् वे लोक इन्द्रो वृत्रमहान् साक्षादेवज्रम् भ्रातृव्याय प्रहरत्यरुणपि शङ्गो स्वो दक्षिणैतद्वैवज्रस्य रूपकम् समृद्ध्यै ॐ षष्ठकाण्डः समाप्तः सप्तमकाण्डः प्रारम्भः ॐ प्रजननम् ज्योतिरग्निर्देवतानाम् ज्योतिर्विराच्छन्दसाम् ज्योतिर्विराट् वाचोऽग्नौ सन्तिष्ठते विराजमभिसम्पद्यते तस्मान्तर्ज्योतिरुच्यते गौ स्तोमौ प्रातः सवनम् वहतो यथा प्राणश्च पाणश्च द्वौ माद्यन्दिनघुम् सवनम् यथा चक्षुश्च श्रोत्रम् च द्वौ तृतीयसवनम् यथा वाच्यप्रतिष्ठा च पुरुषसंयो वा एकयज्ञौ स्थूरिर्यम् कामम् कामयते तमेतेनाभ्यस्तुते सर्वज्ञस्थूरिणाभ्यस्तुतेऽग्निष्टो मेन वै प्रजापतिः प्रजा असृजतराग्निष्टो मेनैव पर्यगृह्णाताम् परिगृहीतानामश्वतरोत्यप्रपततस्यानुभाजले तादत्त तद्गद्दभेऽन्यमाट्तस्माद्गद्दभोद्विरेता अथो आहुर्वणवायान्यमाड्डिति तस्माद्गणवाद्विरेता अथो आहु ोषधेषण्यमाण्डितस्मादोषधनोऽनभ्यक्ता आहु प्रजातुण्यमाण्डितस्माद्यमोजालेते तस्मादश्वतरो प्रजायतमाप्तरेताहितस्माद्बर्हिष्यणवकृतः सर्ववेदसेवा सहस्रेवावकृतो दिक्यप्रमदयेवम् विद्वानज्ञष्टो मेन यजते प्राजाता प्रजा जनयति परिप्रजाता गृह्णादस्मादाहृज्येष्ठयज्ञयति प्रजापतिर्वाव ज्येष्ठः सह्येतेनाग्रेजत प्रजापतिरकामेन प्रजादेशमुखसहस्रमतम् निरमेतनमज्ञदेवतान्वदृजदकारे छन्दोरसन्दरगम् साम ब्राह्मणो मनुष्याणामजः पशूनाम् तस्मात्ते मुख्यामुखतो चतुर्जन्तोरतो बाहुभ्याम् पञ्चदशन्निरमेतमिन्द्रो देवतान्वसृजतृष्टुच्छन्दो बृहत्सामराजन्यो मनुष्याणामृपशूनाम् तस्मात्ते वीर्यावन्तवीर्यासृज्यन्तमध्यजः सप्तदशन्निरमेतम् विश्वे देवा देवता अन्वसृज्यन्त जगति छन्दो वैरूपगुंसामहैश्व मनुष्याणाम् गावपशूनाम् तस्मात् आद्या अन्नधानाद्यसृज्यन्तरस्माद्धूयागुंसोऽन्येभ्यो भूयिष्ठा हि देवता अन्वसृज्यन्तमत्तरेकविगुंशन्निरमेतमनुष्टुच्छन्दोऽन्वसृज्यज वैराजगुंसामसूद्रम मनुष्याणामश्वपशूनाम् तस्मात्तौ भूतसङ्ग्रामिणामश्वश्च शूद्रश्च तस्मात् शूद्रो यज्ञेनवगत्वो न हि देवतान्मधृज्यत तस्मात् पादा उपजीवनः पत्तो यदृज्येताम् प्राणावेत्रमदर्थमासाः पञ्चदश प्रजापतिः सप्तदशत्रीणि मे लोका असावादित्येकविपुंसरे तस्मिन् वाचेश्चिदारे तस्मिन् प्रतिष्ठिताय एवम् वेद एतस्मिन्नेव एतस्मिन् प्रतिष्ठते प्रातः सवने वेगायत्रे चन्द्रसा त्रिपुटे स्तोमायज्योतिदशदेरित्रमृताः ब्रह्मवर्चसेन पञ्चदशायज्योतिदशदेरि पञ्चरसेन उजदा सप्तरसायज्योतिदशदेरि सप्तरसेन प्राजापत्येन प्रजननेनैकविंशारज्योतिदशदेरि स्तोमदेव तत्स्तोमारज्योतिर्दधदेत्यथो स्तोमदेव स्तोमभिप्रणयति यावन्तो वै स्तोमास्तावन्तः कामास्ता लोकास्तावन्ति ज्योतिकश्येतावदेव स्तोमानेतावतः कामानेतावतो लोकानेतावन्ति ज्योतिकश्चे ब्रह्मवादिना वदन्ति सत्त्वैरेतयोष्टोमेन यजमानो सर्वस्तोमेन यस्य त्रिपदमन्तरिजन्ति प्राणायस्तस्यान्तरिजन्ति प्राणेषु मेऽप्यतरिखलवैर्यज्ञेन यजमानो यस्य पञ्चदशमन्तरिजन्ति वैर्यन्तस्यान्तरिजन्ति वीर्ये मेऽप्यसरिति खलु वैर्यज्ञेन यजमानो यजते यस्य दत्तरसमन्तरिजन्ति प्रजान्तस्यान्तरिजन्ति प्रजायां मेऽप्यसरिति यजमानो यजतेऽस्यैकविपुंशमन्तरिजन्ति प्रतिष्ठान्तस्यान्तरिजन्ति प्रतिष्ठायां मेऽप्यसरिति खलु वैरिज्ञेन यजमानो यजते यस्य तृणवमन्तरिजन्ततो गच्छतस्य नक्षत्रिरा च विराजमन्तर्यन्तदुर्वेऽप्यतन्नक्षत्रिरायाम् च विराजेति खलु वैरिज्ञेन यजमानो यजते यस्य त्रयम् त्रिपुंशमन्तरिजन्ति देवता तस्यान्तरिजन्ति देवता सुमेऽप्यतरिति खलु वैरिज्ञेन यजमानो यजते यो वै स्तोमानामवमम् परमदा गच्छन्तम् वेद परमदामेव गच्छति त्रिवद्वै स्तोमानामवमस्त्रिवत्परमोजदेवम् वेद परमदामेव गच्छति।